नमस्सर्वेभ्यः। अद्य कोविदवर्गस्य चतुर्थः पाठः मार्च् मासस्य 30 दिनाङ्कः।
गुरुरेव गतिर्गुरुमेव भजे गुरुणैव सहास्मिनमो गुरवे न गुरोः परमं शिशुरस्मि गुरौ गुरोर्मतिरस्ति गुरौ मम पाहि गुरो। गतवर्गे गतसप्ताहे वयं काव्याध्ययनस्य पीठिकारूपेण काव्यं नाम किं, काव्यस्य प्रयोजनानि कानि, काव्यप्रभेदाः के भवन्ति इत्यादि दृष्टवन्तः। तत्र पुरुषार्थाः, धर्मार्थकाममोक्षाः चतुर्विधाः भवन्ति। तेषां प्राप्त्यर्थं त्रेधा उपायाः अस्माकं पूर्वजैः कल्पिताः, वेदाः, इतिहासपुराणानि तथा काव्यानि। त्रिभिः अपि समानरीत्या पुरुषार्थसिद्धिः भवति, किन्तु तेषां संवहनक्रमः भिन्नः। वेदानां शैली प्रभुसंहिता, आज्ञारूपा इत्युच्यते। इतिहासपुराणानां शैली मित्रसंहिता, मित्रेण सह यथा मैत्रीपूर्वकचर्चा तादृशी इति कथ्यते। काव्येषु तु कान्तासंहिता, यथा पत्नी तथा प्रियवचनैः काव्यानि बोधयन्ति इति व्यवस्था। काव्यं प्राधान्येन द्विविधं, दृश्यं श्रव्यं चेति। दृश्यकाव्ये रूपकाणि उपरूपकाणि भवन्ति, श्रव्यकाव्ये गद्यं पद्यं चम्पूः इति भवति। तत्र पुनः अन्तर्भेदाः भवन्ति। काव्यानाम् अध्ययनस्य क्रमः कः भवेत्, येन उत्तमं ज्ञानं प्राप्तुं शक्यते इत्यपि ज्ञातवन्तः। तत्र अलङ्काराणां छन्दसां च अध्ययनम् आदौ कृत्वा अनन्तरं काव्याध्ययनं कुर्मः इति उक्तम्। यतोहि तदा एतेषाम् अलङ्काराणां तत्तत् स्थले काव्ये यत्र यत्र उपयुज्यन्ते तदा वयं दृष्ट्वा ज्ञातुं शक्नुमः। तत्र अलङ्कारः द्विविधः, शब्दालङ्कारः, अर्थालङ्कारः इति। शब्दालङ्कारे अनुप्रासः, यमकः इति द्वेधा विभागः। अर्थालङ्कारेषु शतादूर्ध्वं प्रभेदाः सन्ति। तत्र पञ्चप्रभेदाः अस्माभिः अधुना अधीयन्ते। शब्दालङ्काराणाम् अध्ययनं गतसप्ताहे कृतम्। तत्र अनुप्रासे प्रभेदद्वयं दृष्टवन्तः, छेकानुप्रासः तथा वृत्त्यनुप्रासः इति। व्यञ्जनसमुदायस्य एकवारम् आवृत्तिः छेकानुप्रासः इति कथ्यते, अर्थात् द्विवारं समानसंयुक्ताक्षरस्य आवृत्तिः भवति। न्त चिन्तयामि हरिमेव सन्ततम्, न्त न्त इति द्विवारम् अस्ति, अतः अत्र छेकानुप्रासः इति। तत्रैव बहुवारम् आवृत्तिः भवति चेत् वृत्त्यनुप्रासः इति कथ्यते। नितान्तकान्तदन्तकान्तिमन्तकान्तकात्मजम्, अत्र तु न्त 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 इति बहुवारम् अस्ति। तथैव ककारस्यापि बहुवारम् आवृत्तिः अस्ति। एषः वृत्त्यनुप्रासालङ्कारः। भिन्नार्थकानां वर्णसमूहानाम् आवृत्तिः यमकम्। यत्र पदं समानमिव दृश्यते किन्तु अर्थभेदः भवति, तादृशस्य अलङ्कारस्य यमकालङ्कारः इति नाम। अगजाननपद्मार्कं गजाननमहर्निशम्। तत्र गजानन गजानन इत्यस्ति, किन्तु पूर्वम् अगजा आनन इति छेदः, अगजा नाम पार्वती, पार्वत्याः मुखम् इति। अत्र तु गजाननं, गजः गजस्य आननम् इव यस्य आननं भवति इति। एषः यमकालङ्कारः। एतदाधारेण किञ्चित् गृहकार्यं दत्तमासीत्, यत्र केचन श्लोकाः अथवा श्लोकांशाः दत्ताः, तेषु कः शब्दालङ्कारः इति ज्ञातव्यं, ज्ञात्वा लेखनीयम् इति।
ये वक्तुम इच्छन्ति हस्तम उन्नयन्तु। लता शेखरन
अस्ते भगिनि भजे व्रजैकमण्डनम् समस्त पाप खण्डनम् सो डनम् डनम् इस् चेकानुप्रासः स्वभक्त चित्त चेकानुप्रासः इत्त इत्त रञ्जनम् सदैव नन्द नन्दनम् नम् नम् इस् कमिङ्ग् अगेन चेकानुप्रासः सुपिच्च गुच्छ सोच्च इच्छ सह सुपिच्च गुच्छ मस्तकम् सुनोद वेणु हस्तकम् तकम् तकम् चेकानुप्रासः अनङ्गरङ्ग चेकानुप्रासः अनङ्गरङ्ग सागरम् नमामि कृष्ण नागरम् रं रम् अगेन् चेकानुप्रासः पुनः
स्वस्मिन् श्लोके चेकानुप्रासः अस्ति सर्वत्र द्विवारम् संयुक्ताक्षरस्य द्विवारम् आवृत्तिः ण्ड 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 छ छ स्त स्त अङ्ग अङ्ग एतदपि स्वीकर्तुं शक्यते गर गकाररेफयोः गकाररेफयोः इत्यादि एवं मुख्यतया अत्र छेकानुप्रासः अलङ्कारः भवति अत्र केनचित् पृष्टम् एकस्मिन् श्लोके एकस्माद् अधिकः अलङ्कारः भवितुम् अर्हति वा इति भवति बहुत्र भवति तथा शब्दालङ्कारेषु एवम् अर्थालङ्कारेषु अलङ्काराणां सङ्करः अथवा मिश्रणं भवति शब्दालङ्कारः अर्थालङ्कारः उभयं भवति इत्यस्ति तथैव बहुविधानाम् अलङ्काराणाम् एकस्मिन्नेव श्लोके सम्भवः अस्ति यथा अत्रैव नम् 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 इत्यस्ति तत्र वृत्त्यनुप्रासः इति वक्तुं शक्यते किन्तु प्राधान्येन कः अलङ्कारः भासते थिमाटिकलि अत्र छेकानुप्रासः किन्तु मध्ये अन्ये अपि अलङ्काराः भवितुम् अर्हन्ति एकस्मिन् श्लोके एक एव अलङ्कारः इति नियमः नास्ति अग्रिमः श्लोकः अमरीकवरीभारभ्रमरीमुखरीकृतम् दूरीकरोतु दुरितं गौरी चरणपङ्कजम् कौसल्या भगिनी कौसल्या भगिनी न श्रूयते ज्योति भगिनी ज्योतिरङ्गनाथ
हेलो
वदतु श्रूयते
वृत्त्यानुप्रासः
वृत्त्यनुप्रासः सत्यं रेफस्य
समूहः
बहुवारं रेफस्य आवृत्तिः अस्ति री इति री रि सामान्यतः शब्दालङ्कारे व्यञ्जनानामेव गण न क्रियते स्वरभेदः सत्यपि व्यञ्जनस्य आवृत्तिः इत्येव सामान्यतः अतः अत्र वृत्त्यनुप्रासः अलङ्कारः समानस्य व्यञ्जनस्य बहुवारम् आवृत्तिः विद्यते यातुनः पदवी सैषा यातुनश्चास्य लक्ष्मण यातुकामन् तयैवेदं यातुकामन् न हन्यताम् मञ्जु गुप्ता
Yes. Yatu, one second. Yatu Padvi. This would be Yamakam?
Yes. This is Yamakalankara.
Yeah,
Yamakalankara. Yamakalankara yatha uktam. समानं पदमिव दृश्यते यातुनः यातुनः यातुकामं यातुकामम् इति अस्ति अयं चम्पूरामायणस्य श्लोकः, अत्र अर्थः भेदः. या नः पदवी, अस्माकं या पदवी नाम मार्गः, सा एव यातु नः इति द्वितीयवारं यत्र उच्यते तत्र यातु शब्दस्य राक्षसः इत्यर्थः. नैरृतो यातु रक्षसि इति अमरकोशे अस्ति. एवञ्च अत्र यातु नः इति पदत्रयं भिन्नं. यातु नः इति यातु शब्दस्य षष्ठी विभक्तिः, राक्षसस्य इत्यर्थः. पुनः यातु कामम्, यातुं कामः यस्य, गन्तुम् इच्छति इत्यर्थः अत्र. यातु कामम् इति एकमेव पदम्. यातु इति लोट्लकारः, कामं यथेच्छं गच्छतु इत्यर्थः. एवम् अत्र यमकालङ्कारः अस्ति. अर्थः ज्ञायते चेत् सम्यक्, नो चेदपि यत्र पूर्णस्य पदस्य आवृत्तिः इव दृश्यते तत्र यमकालङ्कारः इति प्राथमिकस्तरे वक्तुं शक्यते. अग्रिमः श्लोकः निर्मला राजशेखर.
नमस्ते भगिनी.
वदतु.
इस् दिस् आल्सो यमकालङ्कारः?
नो, अत्र केवलं
वृत्ति, देन् इट्स् वृत्त्यनुप्रासः.
करेक्ट्. अत्र वृत्त्यनुप्रासः. छि छि इति बहुवारम् आवृत्तिः अस्ति. स्वरच्छिदं पुरच्छिदं भवच्छिदं मखच्छिदं गजच्छिदन्धकच्छिदं तमन्तकच्छिदं भजे इति वृत्त्यनुप्रासः. रावणकृत शिवताण्डवस्तोत्रस्य अयं श्लोकः. अत्र अर्थभेदः नास्ति. सर्वत्र छिनप्ति, यः नाशयति, तत् छित् इत्यस्ति. अतः पूर्णस्य पदस्य अर्थभेदः इति नास्ति, केवलं वृत्त्यनुप्रासः, पुनः पुनः तस्यैव संयुक्ताक्षरस्य आवृत्तिः. अग्रे प्रिया भगिनी. प्रिया सन्तानकृष्णन्, यु हव् टु अन्म्यूट् युर् सेल्फ्. Click on the microphone.
Yes.
तस्मिन् अस्थ दिशि कास्त्रं रामो रामावबोधितः, आत्मानं मुमुचे तस्मात् एकनेत्रव्ययेन सह.
राम राम इति चेकानुप्रासः
यमकम्. अत्र रामः रामः इति एकत्र रामः श्रीरामः इत्यर्थः, अपरत्र रामा इत्युक्ते पत्नी सीता इत्यर्थः अस्ति. रामः रामावबोधितः इत्यत्र अयं प्रसङ्गः वस्तुतः रामायणे काकासुरस्य कथा उच्यते, यत्र कदाचित् रामः यदा सीतायाः अङ्के शयानः आसीत् तदा काकरूपेण आगत्य जयन्तः सीतां तुन्नवान्. तदा रामः कोपेन तस्य उपरि अस्त्रप्रयोगं कृतवान्. तस्मिन् अस्थत् इशीकास्त्रं रामः रामावबोधितः, एकत्र रामः श्रीरामः. रामा इत्युक्ते प्रिया, तस्य प्रिया पत्नी इत्यर्थः. अतः राम राम इति अर्थभेदेन आवृत्तिः अस्ति. अतः यमकालङ्कारः अत्र. अग्रे रघुपति महोदय. कतिवारम् आवृत्तिः अस्ति? छेकानुप्रासः सम्यक्. ञ्च ञ्च, नाश नाश, धन धन, धकारनकारयोः नकारशकारयोः इति. अत्र ती 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 इत्यंशे वृत्त्यनुप्रासः अपि वक्तुं शक्यते. यतोहि बहुवारं ति इत्यस्य तकारस्य आवृत्तिः अस्ति, किन्तु थिमाटिकलि तत्र द्विवारं द्विवारं क्रियते इत्यतः तदंशे छेकानुप्रासः, तकारस्य आवृत्तौ वृत्त्यनुप्रासः उभयमपि अस्ति. अग्रे रोहन् महोदय. You have to unmute yourself.
Namo namaha. Vritti anuprasa.
Vritti anuprasa.
Amba, 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 amba.
Samyak. Atra tathaiva. Dra, mba, mba, mba. Makara bakara yohu sanyogasya trivaram. Atra punaha dhara, dhara, dhara. Iti asti ataha atra. वृत्त्यनुप्रासः अलङ्कारः. सम्यक्. अग्रे सुब्रह्मण्यं महोदय.
नमस्ते.
हा,
बलिनियम यमकालङ्कारः इदम्. मन द्विवारम् अस्ति यमकालङ्कारम्, चारा द्विवारम् अस्ति यमकालङ्कारम्.
तत्र छेकानुप्रासः वक्तव्यः. यतोहि तत्र समानं पदं नास्ति, चकाररेफयोः एव वर्णयोरेव आवृत्तिः चेत् छेकानुप्रासः, अर्थभेदेन पदस्य आवृत्तिः अस्ति चेत् यमकालङ्कारः इति. अतः बलिनियम बलिनियम इत्यत्र यमकालङ्कारः प्रधानः. तदपि अस्ति न न न इति बहुवारम् अस्ति तत्र वृत्त्यनुप्रासः इत्यादि वक्तुं शक्यते, किन्तु प्राधान्येन अत्र विवक्षितः अर्थः चमत्कारः अत्र अस्ति. अयमपि चम्पूरामायणतः वामनावतारस्य विषये कथयति. वामनः बलिनियमनहेतोः बलेः महाबलेः नियमनं नियन्त्रणं तेन तत्कारणेन अस्मिन् कानने अस्मिन् वने बलिनियमपरः. अत्र बलिनियमः इत्युक्ते ब्रह्मचारी यदा ब्रह्मचारी भवति तदा तत्र नियमाः भवन्ति, तेन भूतबलिः अन्येभ्यः बलिः इत्यादि दातव्यम्, एवं तपश्चर्या नियमयुक्तः सः सञ्चारं कृतवान् इति. तत्र बलिनियम बलिनियम पूर्वत्र बलि इत्यनेन महाबलिः तस्य नियन्त्रणार्थम् इत्यर्थः, अपरत्र सः बलि इत्यादि नियमं पालयन् सः आसीद् इति यमकालङ्कारः अस्ति. अग्रिमः श्लोकः. अन्ये केऽपि वक्तुमिच्छन्ति यैः एतावता नोक्तम्? एतत्तु सरलमस्ति. महादेवन् महोदय.
त्रयी वेद्यं हृद्यं त्रिपुरहरमाद्यं त्रिनयनं त्र 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 त्रिवारम् अस्ति इत्यनेन वृत्त्यनुप्रासः.
तत्र तदपि अस्ति, तत्तु मया न चिह्नितमेव, किन्तु तदपि करणीयमासीत्. द्याद्याद्य त्र 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 र र र र र अतः बहूनां व्यञ्जनानां बहुवारम् आवृत्तिः अस्ति इत्यतः वृत्त्यनुप्रासः अलङ्कारः. अन्तिमम् रामानुजं महोदय.
द्रया द्रया छेकानुप्रासः.
छेकानुप्रासः सम्यक्. सो प्राञ्जलीन् अञ्ज ञ्ज ञ्ज अस्ति, पुनः अग्रिम पादे द्र द्र अस्ति, अतः अत्र छेकानुप्रासः. एवं शब्दालङ्काराणां प्राथमिकं ज्ञानं प्राप्तं, पुनः पुनः यदा अभ्यासं कुर्मः तदा इतोप्यधिकं ज्ञायते. अत्र एकः प्रश्नः अस्ति तत्र द्वितीय श्लोके अनुप्रासः इज़ इन् द सेकेण्ड् श्लोक अनुप्रास रादर् देन् वृत्यनुप्रास एज़ इट् इस् रिपीटिङ्ग् ओन्ली वन् लेटर् रादर् देन् ग्रूप् आफ् लेटर्स् अनुप्रासस्यैव प्रभेदाः चेकानुप्रासः वृत्यनुप्रासः एवं लाटानुप्रासः श्रुत्यनुप्रासः इति अनुप्रासालङ्कारस्यैव प्रभेदाः अनुप्रासः इत्युक्ते व्यञ्जनानाम् आवृत्तिः तत्र व्यञ्जनसमुदायस्य एकवारम् आवृत्तिः चेत् चेकानुप्रासः इति कथ्यते बहुवारम् आवृत्तिः एकस्य व्यञ्जनस्य वा बहूनां व्यञ्जनानां वा बहुवारम् आवृत्तिः चेत् वृत्यनुप्रासः इति कथ्यते अतः वृत्यनुप्रासः इति अनुप्रासस्यैव भेदः अनुप्रासः इति पृथग् अलङ्कारः न अनुप्रासस्य प्रभेदाः छेकानुप्रासः वृत्यनुप्रासः इत्यादि इदानीम् अग्रे गच्छामः अर्थालङ्काराः शब्दालङ्काराणां विषये ज्ञातम् इदानीम् अर्थालङ्कारः यथा नाम्ना ज्ञायते यत्र अर्थे कश्चिद् अलङ्कारः कश्चिद् विशेषः चमत्कारो वा भवति तादृशः अलङ्कारः अर्थालङ्कारः इति कथ्यते तत्र प्रथमा अत्यन्तं मूलभूत अलङ्काररूपा अस्ति उपमा इति कैश्चिद् वस्तुतः सर्वे अलङ्काराः उपमा एव उपमामूलकाः एव इति कैश्चित् मन्यते उपमा इस् वन् आफ् द मोस्ट् फण्डमेण्टल् अलङ्कारः इत्युक्ते तदाधारेण तत्र उपमायाः विशेषम् आश्रित्य अन्ये अलङ्काराः बहवः कथ्यन्ते किन्तु उपमालङ्कारः अत्यन्तं प्रधानः भवति उपमा नाम का उपमा यत्र सादृश्यलक्ष्मीरुल्लसति द्वयोः इति उपमायाः लक्षणं भवति यत्र सादृश्यलक्ष्मीः वर्ण्यमानस्य पदार्थस्य अन्येन पदार्थेन सादृश्यवर्णनम् एकं पदार्थम् अस्माकं लक्ष्यमस्ति एतत्तु अन्यदिव अस्ति इति सादृश्यं यत्र वर्ण्यते तदपि सादृश्यलक्ष्मीः सुन्दररूपेण रमणीयतया यत्र द्वयोः पदार्थयोः सादृश्यं वर्ण्यते तत्र उपमालङ्कारः इति कथ्यते उदाहरणं किम् तस्याः मुखं चन्द्रः इव सुन्दरमस्ति बहु प्रसिद्धा इयम् उपमा मुखस्य चन्द्रेण सह सादृश्यं चन्द्रः अत्यन्तं सुन्दरः सर्वेषाम् आह्लादं जनयति एवं तस्याः मुखमपि बहु सुन्दरं सन्तोषं जनयति इत्यर्थः अत्र मुखस्य चन्द्रस्य च सादृश्यं वर्ण्यते एषः बालः सिंहः इव पराक्रमी अत्र बालस्य सिंहस्य च सादृश्यं वर्ण्यते एतादृश अलङ्कारः उपमा इति कथ्यते सा आङ्ग्लभाषायां सिमिलि इति उच्यते सिमिलारिटि सादृश्यम् इति प्रधानः अर्थः तत्र उपमा अलङ्कारः यत्र भवति तत्र चत्वारि अङ्गानि भवन्ति उपमायाः अथवा चत्वारः अवयवाः भवन्ति पूर्वोक्ताम् उपमामेव स्वीकुर्मः मुखं चन्द्रः इव सुन्दरम् इत्यस्ति तत्र उपमेयः नाम वर्ण्यमानं वस्तु यस्य वर्णनं वयम् इदानीं कुर्मः यस्य विषये अस्माभिः उच्यते सः उपमेयः इति कथ्यते उदाहरणार्थम् अत्र मुखं मुखस्य विषये एव किल उच्यते चन्द्रस्य वर्णनं न क्रियते अत्र मुखं चन्द्रः इव अस्ति इति मुखस्य वर्णनं क्रियते मुखम् उपमेयः इति उच्यते द्वितीयम् उपमानं येन सह तुलना क्रियते द स्टाण्डर्ड् आफ् कम्पेरिसन् यत् बहु सम्यक् अस्ति एतदपि तदिव इति यद्वदामः तत् उपमानम् अत्र मुखं चन्द्रः इव अस्ति. अतः चन्द्रः उपमानम्, मुखम् उपमेयः, चन्द्रः उपमानम्. सामान्यतः वयं वदामः न्यूनगुणः उपमेयः, अधिकगुणम् उपमानम्. चन्द्रः अत्यन्तं सुन्दरः, मुखं तद्वत् सुन्दरं, किन्तु किञ्चित् न्यूनत्वम् अस्ति अस्माकं विषये. सर्वदा यदा वयं सादृश्यं वदामः, एतदपेक्षया बहु उत्तमं यदस्ति तेन सह एव सादृश्यम् उच्यते. एतदपेक्षया न्यूनगुणम् अस्ति चेत् तत् सदृशम् इति वक्तव्यं न भवति. अतः अधिकगुणम् उपमानम् इति नियमः. अनन्तरं साधारणधर्मः, उपमानम् उपमेयः एतयोः मध्ये सादृश्यं किमपि भवेत् तदा एव अस्माभिः उपमा वक्तुं शक्यते. समानगुणः, कः समानगुणः मुखस्य चन्द्रस्य च इति चेत् सौन्दर्यम्. सौन्दर्यम् आश्रित्य मुखे यावत् सौन्दर्यमस्ति, चन्द्रे यावत् सौन्दर्यमस्ति, तादृशमेव सौन्दर्यं मुखे अपि अस्ति इति वदामः. एवं च उपमेय उपमानयोः मध्ये यः समानगुणः भवति तत् साधारणधर्मः इति कथ्यते. अनन्तरम् उपमावाचकम्, अत्र उपमा इति बोधयितुं किमपि पदं भवति, सादृश्यबोधकः शब्दः. इव अस्मिन् वाक्ये इव इति उपमावाचकं भवति. उपमेयः उपमानं, साधारणधर्मः उपमावाचकम्. एवं सर्वत्र उपमायाः चत्वारि अङ्गानि भवन्ति. अन्यदेकम् उदाहरणं पश्यामः. कृष्णः मेघवत् श्यामलः. श्यामलः कृष्णवर्णीयः इत्यर्थः. अत्र उपमेयः कः, कस्य विषये, कस्य वर्णनं क्रियते? अत्र कृष्णस्य वर्णनं क्रियते, अतः कृष्णः इति उपमेयः. उपमानं किम्, कृष्णः कः इव अस्ति इति वयं तुलनां कुर्मः मेघवत्. मेघः अत्यन्तं कृष्णः, तत्सदृशं कृष्णत्वम् अस्मिन्नपि अस्ति इति मेघः उपमानम्. कृष्णस्य मेघस्य च समानगुणः कः? किमर्थं कृष्णः मेघः इव इति वदामः? किं मेघः इव आकाशे सञ्चरति इति वा? तथा न. कः साधारणधर्मः? श्यामलः, श्यामलत्वं, सः वर्णः एव तयोः साधारणधर्मः. उपमावाचकं किमत्र? मेघवत्. वत् इति प्रत्ययः सः एव सादृश्यं बोधयति. अतः अत्र वत् इति उपमावाचकम्. कृष्णः उपमेयः, मेघः उपमानम्, श्यामलत्वं साधारणधर्मः, वत् इति उपमावाचकं पदम्. अनेन क्रमेण वाक्यानि दीयन्ते, तत्र उपमायाः कानि अङ्गानि इति भवद्भिः वक्तव्यम्. अभिमन्युः अपि शूरः यथा अर्जुनः इत्यस्ति. अत्र किं किम् अङ्गमस्ति? राव् महोदय
श्रूयते वा?
हा श्रूयते.
अत्र उपमेयः अभिमन्युः
उपमेयः, यतः अभिमन्योः विषये एव उच्यते.
अर्जुनः,
अर्जुनः यथा अर्जुनः तथा अभिमन्युः इति अर्जुनः उपमानम्.
साधारणधर्मः शूरत्वम्,
शूरत्वम् अथवा शौर्यम् इति तयोः समान गुणः. उपमा वाचकं किम्?
यथा.
यथा इति उपमा वाचकं. सम्यक्. अभिमन्युः उपमेयः, अर्जुनः उपमानं, शौर्यं साधारणधर्मः, यथा इति उपमा वाचकम्. अग्रिमं वाक्यं पश्यामः. श्रीरामः वीर्ये विष्णुना सदृशः इत्यस्ति. शरण्य नागेश, यु हैव टु अनम्यूट योरसेल्फ. वदतु, न श्रूयते. आम् वदतु. उपमेयः कः?
श्रीरामः उपमेयः.
श्रीरामः उपमेयः. सम्यक्. उपमानम्?
उपमानम्
विष्णुः उपमानम्.
साधारणधर्मं वीर्यः.
वीर्यं साधारणधर्मः.
सदृशः उपमान उपमावाचकम्.
सम्यक्. सदृशः इति उपमावाचकम्. यथा पश्यन्ति उपमावाचकपदानि बहूनि सन्ति. इव, यथा, तथा, सदृश, वत् एवं बहुविधानि उपमावाचकानि पदानि सन्ति. अग्रिमं वाक्यं. माता धरित्र्या तुल्यक्षमा. श्रीमती भगिनी.
उपमेयं माता.
उपमेयः
माता. उपमानं धरित्रया.
धरित्री.
साधारणधर्मः क्षमत्वं.
क्षमा. सत्यं. क्षमत्वम् अथवा क्षमा.
उपमावाचकं तोलनं तत्र तुल्य.
तुल्य इति उपमावाचकम्. तत्र माता अर्थः अवगतः किल. धरित्री इत्युक्ते भूमिः. भूमिः इव मातुः क्षमा. क्षमा नाम सहनागुणः. सोढुं सर्वं सहते इत्यतः क्षमा. क्षमया धरित्री इत्येव प्रसिद्धमस्ति. धरित्री भूमिः. तुल्य तत्समान क्षमा सहना मातुः अस्ति. माता उपमेयः, धरित्री उपमानं, क्षमा साधारणधर्मः, तुल्य इति उपमावाचकम्. अग्रे श्रीराम कृष्णमूर्ति.
नमस्ते. नमस्ते. उपमेयः कुसुमसमान.
कस्य विषये उच्यते? कः अर्थः? सज्जनानां हृदयस्य कुसुमसमानं मृदुत्वं भवति. हार्ट् आफ् सज्जन. सज्जनानां हृदयं पुष्पमिव अत्यन्तं मृदु भवति इति उच्यते.
सज्जनानां
हृदयं. हृदयमेव मृदु. अतः सज्जनहृदयम् उपमेयः. सज्जनहृदयं कथं भवति इति वर्णयति. अतः सज्जनहृदयम् उपमेयः. उपमानं किम्? कस्य किं सदृशं भवति हृदयम्? हृदयम् इस् लैक्
कुसुमसमानमृदुत्वं.
न तत्र कुसुमं समान मृदुत्व इति त्रयमस्ति. मृदुत्वं नाम गुणः, साफ्ट्नेस्. मृदुत्वं गुणः. किम् इव मृदुत्वं? किं मृदु अस्ति?
कुसुमं.
कुसुमं. सम्यक्. अतः कुसुमम् उपमानं. सज्जन हृदयं कुसुमम् इव अस्ति इति वर्णना उपमा. अतः कुसुमम् उपमानम्. उभयोः साधारणधर्मः कः? मृदुत्वं. सम्यक्. मृदुत्वम् इति साधारणधर्मः. उपमावाचकं पदं किम्? समान इति उपमावाचकम्. तत्रैव त्रयमपि अस्ति, कुसुम समान मृदुत्वं. कुसुमम् उपमानम्, समान इति उपमावाचकं, मृदुत्वं साधारणधर्मः. उत्तमं, सम्यक्. अग्रे हनुमान् पक्वफलमिव रक्तं सूर्यं ददर्श. पद्मनाभन् अय्यर्.
नमस्ते. उपमेय सूर्यः.
सूर्यः, सम्यक्. उत्तमम्. यतोहि तदन्ते अस्ति, किन्तु सूर्यस्य एव वर्णनं क्रियते, अतः उपमेयः सूर्यः. उपमानम्
पक्वफलम्
उपमानम्. सम्यक्. साधारणधर्मः रक्तवर्णः अथवा रक्तत्वं साधारणधर्मः. उपमावाचकम्
इव
इति उपमावाचकम्. सम्यक्. अत्र हनुमान् इति उपमायां न अन्तर्भवति, यतोहि हनुमतः केनापि सादृश्यं न उच्यते. कयोः सादृश्यम् उच्यते? सूर्यस्य पक्वफलस्य च सादृश्यम् उच्यते. हनुमान् सूर्यं दृष्टवान्, एतत् फलम् इति चिन्तितवान्. किमर्थम्? उभयत्र रक्तत्वगुणः समानः आसीत्. अतः सूर्यः उपमेयः, पक्वफलम् उपमानं, रक्तत्वं साधारणधर्मः. सम्यक्. एवम् उपमालङ्कारस्य, उपमायाः सामान्यतः चत्वारि अङ्गानि भवन्ति, किन्तु सर्वत्र चत्वारि अपि अङ्गानि उच्यन्ते इति नास्ति. तत्र पूर्णोपमा लुप्तोपमा इति अस्ति. पूर्णा उपमा यत्र सर्वाणि अङ्गानि भवन्ति, सा पूर्णोपमा. यथा तस्याः मुखं चन्द्रः इव सुन्दरम् अस्ति. मुखम् उपमेयः, चन्द्रः उपमानम्, इव इति उपमावाचकं, सुन्दरम् इति साधारणधर्मः. सर्वमपि अस्ति, अतः इयं पूर्णोपमा. किन्तु एवमेव वक्तव्यमिति नास्ति. तस्याः मुखं चन्द्रः इव अस्ति इत्येव उच्यते चेदपि वयं जानीमः तत्र सौन्दर्यरूपं समानधर्मं श्रोतारः स्वयं ज्ञातुं शक्नुवन्ति. वक्तव्यम् इति नास्ति. अतः अत्र मुखम् इति उपमेयः अस्ति, चन्द्रः इति उपमानम् अस्ति, इव इति उपमावाचकमस्ति, साधारणधर्मः नास्ति. तथापि इयम् उपमा एव. कीदृशी उपमा? लुप्त उपमा. यत्र उपमायाः किञ्चिदङ्गं व्यक्तं न उच्यते. अस्ति, साधारणधर्मः नास्ति इति न. साधारणधर्मं विना वयम् उपमां कर्तुमेव न शक्नुमः. किन्तु साधारणधर्मः स्पष्टतया वाक्ये न उच्यते, शब्दैः न उच्यते, अतः लुप्त इति वदामः. लुप्तोपमा इत्युक्ते शब्दैः सर्वेषाम् अङ्गानां कथनं न भवति. अर्थतः तु भवत्येव, यतोहि सर्वमङ्गं सर्वासु उपमासु भवति. यत्र वाच्यरूपेण न कथ्यते, सा लुप्तोपमा. अन्यानि द्वित्राणि उदाहरणानि पश्यामः. तडित् गौरी इत्युच्यते, प्रसिद्धं पदमस्ति. तडित् इत्युक्ते सौदामिनी, लैट्निङ्ग् इत्यर्थः. गौरी गौरवर्णयुक्ता, वैट् दट् ब्रैट्नेस्, अतः ब्रैट् लैक् द लैट्निङ्ग्. अत्र किमस्ति? तडित् इति उपमानं, गौरत्वं साधारणधर्मः. द्वयमेव अस्ति. उपमेयः नास्ति, उपमावाचकं पदमपि नास्ति. अत्र प्रसङ्गतः ज्ञायते, कस्य विषये उच्यते इति प्रसङ्गं पश्यामः चेत् ज्ञायते. पदेन समासेन एव तत्र उपमावाचकम् इव इति उपमावाचकस्य ज्ञानं भवति. अतः इयमपि लुप्तोपमा. एवमेव इन्दुतुल्यास्य, इन्दुः चन्द्रः, तुल्य समानम्, आस्यं मुखम्, एतदेव मुखं चन्द्रः इव इत्यस्य अपरं रूपम् इन्दुतुल्यास्य. अत्रापि साधारणधर्मः नास्ति. एवं यत्र कश्चिद्धर्मः किञ्चिदङ्गं न दृश्यते, न उच्यते, तत्र लुप्तोपमा इति कथयामः. कुम्भकर्णः तालवृक्षः इव आसीत्. अत्र उपमेयः कुम्भकर्णः, उपमानं तालवृक्षः. साधारणधर्मः कः? न ज्ञायते, न उच्यते, किन्तु ज्ञायते. औन्नत्यं, यथा तालवृक्षः अत्यन्तम् उन्नतः, एवं सः अपि उन्नतः, औन्नत्यरूपः धर्मः वचसा न कथ्यते. उपमावाचकं तु अस्ति इव इति. अतः इयं लुप्तोपमा. अहो कर्णसदृशः दानशीलः इति वाक्यं. तत्र उपमेयः नास्ति, कः दानशीलः इति न उच्यते. इदं तु कुत्रचित् सम्भाषणे कञ्चित् दृष्ट्वा कश्चित् वदति. प्रसङ्गं जानीमः चेत् कः इति ज्ञायते, किन्तु अत्र न उच्यते. अतः उपमेयः नास्ति. उपमानं कर्णः, कर्णः उपमानं. दानशीलत्वम् इति साधारणधर्मः. सदृश इति उपमावाचकम्. इयमपि लुप्तोपमा, यत्र उपमेयः वचसा न कथ्यते. अत्रैव यदि दानशीलः इत्यपि न कथ्यते, अहो कर्णसदृशः इत्येव उच्यते चेत् सापि उपमा. तत्र उपमेयः अपि नोच्यते, साधारणधर्मः अपि वक्तव्यं नास्ति. यदा कर्णः इति उच्यते, सर्वे इत्युक्ते सर्वे ये प्रसङ्गं जानन्ति, महाभारतं जानन्ति, ते कर्णस्य दानशीलत्वं ज्ञातुं शक्नुवन्ति. एवं पूर्णोपमा लुप्तोपमा इति भेदः भवति. अद्यतन अभ्यासे कानिचन वाक्यानि दीयन्ते, तत्र उपमायाः अङ्गानि निर्दिश्य पूर्णोपमा वा लुप्तोपमा वा इति वक्तव्यम्. सः अभ्यासः इदानीं बहु मुख्यं भवति. कुत्रचित् काव्येषु उदाहरणानि पश्यामः इति. यतोहि एतत् सर्वं वाक्यं यदा उच्यते, तत्र उपमायाः शक्तिः न स्फुरति. उपमा वस्तुतः बहु अलङ्कारेषु अत्यन्तं सौन्दर्यं भवति उपमालङ्कारस्य. तद्यदा वयं काव्येषु पश्यामः तदा तस्याः सौन्दर्यं ज्ञायते. अतः परीक्षादृष्ट्या न चेदपि ज्ञानदृष्ट्या कानिचन कांश्चन उपमालङ्कारान् पश्यामः. ततः पूर्वं प्रश्नाः सन्ति चेत् पृच्छन्तु. तत्र पूर्वतनविषये, शब्दालङ्काराणां विषये एकः प्रश्नः. Can the Shabdalankara repetitions span across the padas in the shloka? इत्युक्ते श्लोके पादाः, चत्वारः पादाः भवन्ति. तत्र एकस्मिन्नेव पादे इति द्रष्टव्यं वा सर्वत्र वा इति? सर्वत्र द्रष्टुं शक्यते. तत्र पाद एकस्मिन्नेव पादे कण्टेण्ड् भवेत् इति नास्ति. अतः तत्र प्रसिद्धे श्लोके किं तत् नितान्तकान्तदन्तकान्तिमन्तकान्तकात्मजम् अचिन्त्यरूपमन्तहीनमन्तराय कृन्तनम् हृदन्तरे निरन्तरं वसन्तमेव योगिनां तमेकदन्तमेव तं विचिन्तयामि सन्ततम्. सम्पूर्णश्लोके सर्वेषु पादेषु तत्र नकारतकारयोः आवृत्तिः, वृत्त्यनुप्रासः अस्ति. अतः एकस्मिन्नेव पादे द्रष्टव्यम् इति नास्ति.
अन्यः एकः प्रश्नः, यदि अर्थः न अवगतः चेत् कीदृशः अलङ्कारः इति कथं ज्ञातव्यमिति, अर्थालङ्कारेषु तु न शक्यते एव, यतोहि अर्थमाश्रित्य एव अलङ्कारः भवति. यदि अर्थः न अवगम्यते तर्हि अलङ्कारः वक्तुं न शक्यते. शब्दालङ्कारेषु अनुप्रासः ज्ञातुं शक्यते, किन्तु यमकस्य ज्ञानार्थं किञ्चिदर्थस्य अपि अवगमनं भवेत्. यदा अर्थः अवगम्यते तदा एव तत्र यमकस्य चमत्कारः ज्ञायते. नो चेत् केवलं शृणुमः शारदा शारदां भोजवदना वदन, सर्वत्र शारदा शारदा इति श्रूयते. यदा अर्थभेदं जानीमः तदा एव अलङ्कारस्य चमत्कारः ज्ञायते. नो चेत् गेस् कर्तुं शक्यते, ओ पदस्य आवृत्तिः अस्ति अतः यमकं स्यादिति वक्तुं शक्यते, किन्तु तत्र किं स्वारस्यम् इति वक्तुं न शक्यते. तत्र उपमालङ्कारस्य लक्षणं पुनरेकवारं कथयतु इति, इत्युक्ते विवृणोतु इति. उपमा यत्र सादृश्यलक्ष्मीः उल्लसति द्वयोः इति लक्षणम्. द्वयोः पदार्थयोः सादृश्यलक्ष्मीः, सादृश्यस्य लक्ष्मीः इत्युक्ते सौन्दर्यम् इत्यर्थः, सम्पत्तिः. नाम केवलं द्वयोः सादृश्यम् अस्ति इति कथनेन चमत्कारः न भवति. अलङ्काराः सर्वेपि चमत्कारजनकाः, तत्र कश्चित् आनन्दः भवेत्. अत एव मया अग्रे यदा काव्येभ्यः उदाहरणानि वक्ष्यन्ते तदा ज्ञायते. केवलम् अस्तु ए इस् लैक् बि, एषः इव अस्ति इति कथनेन उपमा अलङ्कारः इति वक्तुं न शक्यते. सादृश्यलक्ष्मीः, रमणीयतया सादृश्यं यत्र प्रतिपाद्यते. उल्लसति इत्यनेनापि तदेव, नाम रमणीयतया द्वयोः सादृश्यं यत्र वर्ण्यते सा उपमालङ्कारः इति कथ्यते. अस्तु अग्रे चेकानुप्रासे वृत्त्यनुप्रासे आवृत्तिः एकस्य व्यञ्जनस्य भवति वा बहूनां वा, एकस्य वर्णस्य वा बहूनां वा इति. तत्र छेकानुप्रासे व्यञ्जनसमुदायः, व्यञ्जनद्वयम् अर्थात् संयुक्ताक्षरः इति उच्यते. वृत्त्यनुप्रासे तु नास्ति, एकस्यैव व्यञ्जनस्य आवृत्तिः अपि अङ्गीक्रियते, बहूनां व्यञ्जनानां व्यञ्जनसमुदायस्य वर्णसमुदायस्य आवृत्तिः अपि अङ्गीक्रियते. तत्र अन्यः प्रश्नः, वेरि इण्ट्रेस्टिङ्ग् क्वश्चन्. इफ् द फस्ट् अण्ड् फोर्थ् पारास् हेव् रिपिटिशन् आफ् सेम् लेटर् देन् इस् इट् चेकानुप्रास. नाम प्रथमपादे कदाचित् किञ्चित् व्यञ्जनम् उच्यते, अनन्तरम् अन्तिमपादे उच्यते, तत्र छेकानुप्रासः वा इति चेत् न इत्येव वक्तव्यं भवति. यतोहि शब्दालङ्कारस्य चमत्कारः कदा भवति, यदा समीपे एव तयोः आवृत्तिः भवति तदा एव ज्ञायते. प्रथमवर्णः एकः, स एव वर्णः अन्ते अस्ति चेत् न ज्ञायते, अतः तत्र अलङ्कारः न भासते.
अन्यः कदाचित् तु प्रतिप्रासं द्वितीयाक्षरप्रासः अथवा अन्तिमाक्षरप्रासः इत्यादि भवति. प्रतिपादम् अन्तिमः वर्णः समानः चेत् अथवा प्रतिपादं द्वितीयः वर्णः समानः चेत् तत्र अनुप्रासः इति प्रासः इति अङ्गीक्रियते, द्वितीयाक्षरप्रासः भवति. कदाचित् सर्वेषु पादेषु द्वितीयः वर्णः समानः भवति अथवा प्रथमवर्णः अथवा अन्तिमवर्णः, तथा चेत् अलङ्कारः भवितुम् अर्हति. केवलं राण्डम् आदौ कुत्रचिदस्ति पुनः मध्ये अन्ते वा कुत्रचिदस्ति चेत् अलङ्कारत्वं न स्यात्. अस्तु, एतावद्भिः प्रश्नैः अग्रे गच्छामः, यतोहि समयः अत्येति. एतदुक्त्वा एव अहम् उपमां समापयितुम् इच्छामि. तत्र बहुत्र अस्ति, सर्वत्र अस्ति उपमालङ्कारः, वस्तुतः ओम्निप्रेजेण्ट्, सर्वत्र भवत्येव. किन्तु कानिचन उदाहरणानि दृष्टान्तरूपेण दीयन्ते. तत्र वाल्मीकिरामायणे प्रथमः एव सर्गः संक्षेपरामायणम् इति कथ्यते. तत्र रामायणस्य कथा संक्षेपरूपेण उच्यते. तत्र स च सर्वगुणोपेतः कौसल्यानन्दवर्धनः समुद्र इव गाम्भीर्ये धैर्येण हिमवानिव विष्णुना सदृशो वीर्ये सोमवत्प्रियदर्शनः कालाग्निसदृशः क्रोधे क्षमया पृथिवी समः धनदेन समस्त्यागे सत्ये धर्म इवापरः. सर्वमपि उपमालङ्कारः एव. श्रीरामस्य गुणान् वर्णयन् वाल्मीकिः सः कथम् अस्ति. वस्तुतः नारदः वाल्मीकिं कथयति श्रीरामः कीदृशः. गाम्भीर्ये समुद्रः इव, गाम्भीर्यं डेप्त्, गाम्भीर्यं साधारणधर्मः, समुद्रः उपमानम्, इव इति उपमावाचकम्. सर्वत्र श्रीरामः एव उपमेयः. धैर्येण हिमवान् इव, धैर्यं स्टेडिनेस्, स्टेड्फास्ट्नेस्, तत्र हिमालयपर्वतः यथा अचलः स्थिरः भवति तथा श्रीरामः. विष्णुना सदृशः वीर्ये दृष्टं. सोमवत् प्रियदर्शनः, सोमः चन्द्रः, चन्द्रः इव द्रष्टुम् अत्यन्तं प्रियः. कालाग्निसदृशः क्रोधे, क्रोधः तस्य भवति चेत् कालाग्निः, कालाग्नेः यथा एवं दहति इत्यर्थः. क्षमया पृथिवीसमः, किन्तु तथैव तस्य सहनाशक्तिः अपि पृथिवी, भूम्या सदृशः. धनदेन समः त्यागे, धनदः कुबेरः, दानं दानकरणे धनदेन समः, कुबेरेणापि समः इत्येवम् उपमानाम् आवलिः एव अस्ति. सीरीज़् आफ् उपमास्. वाल्मीकिमहर्षिः उपमालङ्कारेषु सिद्धहस्तः. रामायणम् एकं पठामः चेत् महान् आनन्दः भवति बहुत्र. तत्र भोजः कथयति मधुमयफणितीनां मार्गदर्शी महर्षिः इति. तत्र एकम् उदाहरणं, तत्र वाल्मीकिः भरद्वाजेन सह नदीतीरं गच्छति. एतत्तु रामायणस्य उत्पत्तिकथा. क्रौञ्चवधात् पूर्वं वाल्मीकिः भरद्वाजेन सह यदा तत्र तमसा तीरं गच्छति, अकर्दममिदं तीर्थं भरद्वाजनिशामय रमणीयं प्रसन्नाम्बु सन्मनुष्यमनो यथा. अयम् उपमालङ्कारः कदाचित् प्रौढशालायाम् अस्माकं पाठे आसीत्, किन्तु कदापि न विस्मर्यते. तस्य द ब्यूटि आफ् दट् उपमा इस् लैक् दट्. किमुच्यते, सः तत् नदीं दृष्ट्वा कथयति, इदं तीर्थम् अकर्दमम्. अकर्दमं नाम पङ्कं कलुषं किमपि नास्ति, अत्यन्तं शुद्धं स्वच्छम् इत्यर्थः. अकर्दममिदं तीर्थं भरद्वाजनिशामय रमणीयं प्रसन्नाम्बु सन्मनुष्यमनो यथा. तत्र उपमानं वदति सन्मनुष्यमनः, सज्जनानां मनः यथा भवति तथा शुद्धमस्ति इदं तीर्थम्. वयं सामान्यतः किं कुर्मः, प्रकृतौ यद् अस्ति तत् उपमानत्वेन स्वीकृत्य अन्यत् वर्णयामः. अत्र तु सः प्रकृतिमेव वर्णयति, नदीं वर्णयति, नद्याः स्वच्छत्वं सन्मनुष्यमनो यथा, सज्जनानां मनः यथा स्वभावतः निर्मलं भवति, कदापि किमपि कालुष्यं न भवति, तथा अकर्दमम्. अकर्दमम् इति साधारणधर्मः, उभयत्रापि कालुष्यरहितम् इति. तीर्थम् उपमेयः, सन्मनुष्यमनः उपमानम्, यथा इति उपमावाचकशब्दः. अकर्दममिदं तीर्थं भरद्वाज निशामय. हे भरद्वाज, त्वं पश्य इति वाल्मीकिः भरद्वाजं कथयति. रमणीयं प्रसन्नाम्बु सन्मनुष्यमनो यथा. भगवद्गीतायामपि अत्यन्तं प्रसिद्धः श्लोकः, यथा प्रदीप्तं ज्वलनं पतङ्गाः विशन्ति नाशाय समृद्धवेगाः, तथैव नाशाय विशन्ति लोकाः, तवापि वक्त्राणि समृद्धवेगाः. एकादशाध्याये विश्वरूपदर्शनं, तत्र भगवतः विश्वरूपं दृष्ट्वा चकितः अर्जुनः कथयति, किं यथा पतङ्गाः, पतङ्गाः लघुकीटाः, ये अग्निम् उद्दिश्य गच्छन्ति, तादृशकीटाः प्रदीप्तं ज्वलनं विशन्ति, प्रविशन्ति, अग्निं प्रविशन्ति, समृद्धवेगाः, अत्यन्तं वेगेन प्रविशन्ति, तेन किं प्राप्यते, नाशः एव लभ्यते, नाशाय प्रविशन्ति, तथैव लोकाः, लोकाः सर्वे, लोकाः सर्वे जनाः, तव वक्त्राणि, तत्र यदा तस्य विश्वरूपं भवति तत्र बहूनि वक्त्राणि, मुखानि समृद्धवेगाः नाशाय विशन्ति. तत्र पतङ्गाः उपमानं, लोकाः उपमेयः, नाशाय समृद्धवेगाः विशन्ति इति साधारणधर्मः. साधारणधर्मः सर्वदा एकेन पदेन वक्तव्यम् अथवा एकमेव भवेदिति नास्ति. तत्र एतत् सर्वमपि समानगुणः, अत्यन्तं वेगेन नाशार्थं प्रविशन्ति, स्वनाशं स्वयमेव ते साधयन्ति इत्यर्थे सः साधारणधर्मः. कालिदासः तु उपमाकालिदासस्य इत्येव अस्ति. कालिदासः उपमालङ्कारस्य प्रयोगे सिद्धहस्तः एव. अत्र रघुवंशे प्रथमः श्लोकः एव उपमालङ्कारेण युक्तः अस्ति, तदनन्तरं पश्यामः कथञ्चित् रघुवंशं पठामः. तत्र अन्यः श्लोकः रघुवंशस्य, मन्दः कवियशः प्रार्थी गमिष्यामि अपहास्यतां, गमिष्याम्युपहास्यताम्, उपहास्यतां प्रांशुलभ्ये फले लोभादुद्बाहुरिव वामनः. कालिदासः स्वस्य विषये कथयति, अहं मन्दः, मन्दबुद्धिः, कवियशः प्रार्थी, किन्तु कविः इति प्रसिद्धिं प्राप्तुमिच्छामि. कविः इति प्रसिद्धिः प्राप्तव्या चेत् तत्र सामर्थ्यं भवेत्, तादृशं सामर्थ्यं मयि नास्ति, किन्तु कीर्तिम् अभिलषामि, तेन किं फलं स्यात्, उपहास्यतां गमिष्यामि, सर्वे जनाः माम् उपहसेयुः. विनयेन कथयति कालिदासः, अहं तु एतादृशं काव्यं रचयामि इति प्रस्थितः, मयि तु तादृशयोग्यता नास्ति, अतः सर्वे माम् उपहसेयुः. कथम् इत्यत्र वदति, प्रांशुलभ्ये फले लोभात् उद्बाहुरिव वामनः. वामनः कुब्जः, यः ड्वार्फ्, फले लोभात् फलं प्राप्तुं, कीदृशं फलं, प्रांशुलभ्ये, प्रांशुः अत्यन्तम् उन्नतः, अत्यन्तम् उन्नतेन एव लब्धुं शक्यं यत् फलं, तत्र लोभात् प्राप्तुम् इच्छया उद्बाहुः वामनः. वामनः कश्चित् कुब्जः, उद्बाहुः बाहुं हस्तम् उन्नीय सः तत् स्वीकर्तुं प्रयतते. तस्य हस्तलभ्यं नास्ति, किन्तु सः तज्जानन्नपि, तस्य सामर्थ्याभावे अपि, यथा बहु उपरि स्थितं फलं स्वीकर्तुं प्रयतते, तथा मम स्थितिः इति. एतत्तु वेरि वेरि पिक्चर् अस्ति, इमीडियट्लि यु थिङ्क् आफ् अ ड्वार्फ् हु इस् ट्रैयिङ्ग् टु प्लक् दट् फ्रूट्, रैट्? सो अयं उपमालङ्कारः रघुवंशस्य प्रथमसर्गे अस्ति, बहूनि सन्ति. एवमेव तत्रैव प्रथमसर्गे इति विज्ञापितो राज्ञा ध्यानस्तिमितलोचनः क्षणमात्रं ऋषिस्तस्थौ सुप्तमीन इव ह्रदः. तत्र दिलीपः सुदक्षिणा च वसिष्ठाश्रमं गच्छन्ति. सन्ततिः नास्ति, तत्र कारणं किं स्यात् इति वसिष्ठं पृच्छन्ति. तदा वसिष्ठः ध्यानस्तिमितलोचनः, ध्यानं कुर्वन् नेत्रे निमील्य क्षणमात्रं तस्थौ, किञ्चित् कालं सः नेत्रे निमील्य ध्यानं कृतवान्, कथं सुप्तमीन इव ह्रदः. ह्रदः तडागः, अ पाण्ड् ओर् अ लेक्. तत्र किं भवति, सर्वदा चलनं भवति. यत्र जलचराः भवन्ति, मीनाः, ते सर्वदा चलन्ति. तत्र देर् आर् मूमेण्ट्स् इन् वाटर्. किन्तु सुप्तमीनः ह्रदः, यदा सर्वे मीनाः सुप्ताः तदा यथा ह्रदः निश्चलः भवति, तथा सः ऋषिः किञ्चित् कालं निश्चलः आसीत् इति सः वर्णयति. तत्र सुप्तमीनः ह्रदः इति उपमानं, ऋषिः उपमेयः, इव इति उपमावाचकम्, इयं लुप्तोपमा, यतोहि साधारणधर्मः न उच्यते. किन्तु ज्ञायते झटिति, यदा अर्थः ज्ञायते, निश्चलत्वम्, अब्सल्यूट् स्टिल्नेस्, तत्तु अत्र साधारणधर्मः. तस्य उपमया वर्णनं क्रियते कालिदासेन. समयः अतीतः, तथापि अन्तिमम् उदाहरणं कालिदासस्य नाम एव अस्ति. दीपशिखा कालिदासः इति कालिदासस्य नाम, इत्युक्ते सः एक टैटल् दत्तमस्ति. यथा एषु दिनेषु नटानां किमपि चित्रं बहु हिट् भवति चेत् एकं टैटल् यच्छन्ति, तन्नाम्ना एव. तदानीन्तनकाले उपमामाश्रित्य एव कालिदासस्य दीपशिखा कालिदासः इति नाम दत्तम्. सा उपमा अत्यन्तं सुन्दरी अस्ति. सञ्चारिणी दीपशिखेव रात्रौ यं यं व्यतीयाय पतिं वरा सा, नरेन्द्रमार्गाट्ट इव प्रपेदे विवर्णभावं ससभूमिपालः. इन्दुमती स्वयंवरः इति प्रसङ्गः. इन्दुमती अजः, एतयोः विवाहः भवति. तत्र इन्दुमती राजकुमारी, तस्याः स्वयंवरः. स्वयंवरे बहवः राजानः आगताः. तत्र सर्गे पूर्णतया बहूनां राज्ञां विवरणं ददाति कालिदासः. बहु सम्यगस्ति, सर्वेषां महाराजानां विवरणं भवति. अन्ते सा इन्दुमती, अन्तेन सा इन्दुमती यथा यथा आगच्छति तथा सखी भवति, तस्य तस्य राज्ञः विवरणं ददाति. सा श्रुत्वा अग्रे गच्छति, यदि न इच्छति तदा अग्रे अग्रे गच्छति. अजः अन्ते अस्ति, तं सा चिनोति. तत्र सः वदति, सञ्चारिणी दीपशिखेव रात्रौ. सा इन्दुमती सञ्चारिणी दीपशिखा इव आसीत् रात्रौ. एतत्तु अधुना किञ्चित् इमेजिनेशन् अपेक्षते, यतोहि वयम् इदानीं दीपशिखामेव न जानीमः. पूर्वतनकाले एकः टु हाव् दट् फयर् लाण्टर्न्, हस्ते गृहीत्वा गच्छन्ति किल, यत्र हस्ते दण्डः भवति, तस्य अग्रभागे किञ्चित् इन्धनं भवति, काटन् आर् समथिङ्ग्, यत्र अग्निः ज्वलति, सा दीपशिखा. रात्रौ, इदानीं तु तत्र स्ट्रीट् लैट्स् भवन्ति, तदानीन्तनकाले किमपि नासीत्. ये गच्छन्ति रात्रौ, विशिष्य भटाः, रक्षकाः इत्यादि, तां दीपशिखां गृहीत्वा गच्छन्ति. सा इव सञ्चारिणी दीपशिखेव रात्रौ. सा इन्दुमती सञ्चारिणी दीपशिखा इव आसीत्. किमर्थम् इति चेत्, यं यं व्यतीयाय पतिं वरा सा, पतिं प्राप्तुं गच्छन्ति सा, यं यं व्यतीयाय, यथा यथा एकपङ्क्तौ राजानः उपविशन्ति, सा अतीत्य अतीत्य गच्छन्ति गच्छति. तदा ससभूमिपालः, यं यं व्यतीयाय सः सः भूमिपालः राजा विवरणभावं प्रपेदे. कथं नरेन्द्रमार्गाट्टः इव तत्रापि उपमा सा सञ्चारिणी दीपशिखा इव राजानः नरेन्द्रमार्गाट्टाः इत्युक्ते अत्र किं वदति सः सः दीपः कश्चित् दीपधारी मार्गे गच्छति तस्य साक्षात् अग्रे यद् भवनम् अस्ति तत्तु ज्वलितं सम्यक् दृश्यते यदा सः दीपः अग्रे गच्छति तत्र पृष्ठतनगृहे अन्धकारः अग्रिमगृहे प्रकाशः एवमेव यथा अग्रे अग्रे गच्छति पृष्ठतन भवनानि नरेन्द्रमार्गः राजमार्गः तत्र पृष्ठतः विद्यमानेषु भवनेषु अन्धकारः भवति क्षणमात्रं प्रकाशः पुनः अन्धकारः एवं यदा इन्दुमती कस्यचित् राज्ञः समीपम् आगच्छति तदा तस्य मुखे प्रकाशः ओहो एषा मां चिनुयाद् इति सन्तोषः आनन्दः निरीक्षा इति भवति किन्तु सा यदा अतीत्य गच्छति तस्य मुखं विवर्णं नाम अन्धकारयुतं तस्य निराशया विवर्णं भवति इति एक्स्ट्रीम्लि ब्यूटिफुल् तत्तु इमेज् वयं कल्पनां कुर्मः चेत् यथा दीपस्य प्रकाशेन तत्र क्षणमात्रं प्रकाशः पुनः अन्धकारः एवम् इन्दुमती यदा समीपम् आगच्छति अग्रे विद्यमानस्य मुखे प्रकाशः किन्तु अतीत्य गच्छति चेत् तत्र तस्य मुखे अन्धकारः भवति अतः सा सञ्चारिणी दीपशिखा इव आसीत् इति एतदाश्रित्य दीपशिखाकालिदासः इत्यपि उच्यते कालिदासस्य उपमालङ्काराः बहवः श्लोके श्लोके सः उपमां प्रयुङ्क्ते तत्र सर्वत्र रमणीयता दरीदृश्यते अस्तु मम सन्तोषार्थं कानिचन उदाहरणानि किन्तु एतद् जानीमः चेदेव अलङ्कारस्य शक्तिः केवलं वाक्येन अस्तु तस्याः मुखं चन्द्रः इव सुन्दरम् इति यदा पठामः तदा किमस्ति बहु डल् इव भासेत किन्तु यदा सः अलङ्कारः कविभिः काव्येषु प्रयुज्यते तदा तस्याः शक्तिः एतादृशं यद्यपि तत्काले एतद् बहु सामान्यं सर्वे जानन्ति किन्तु पदेषु एतादृशचिन्तनस्य विवरणम् एवं चमत्कारितया तस्य वचनं यदस्ति तदेव काव्यम् आनन्दो वै काव्यम् एतस्य पठनेन यः आनन्दः जायते तदेव काव्यानन्दः ब्रह्मानन्दसहोदरः इति वदन्ति अस्तु अद्य शब्दालङ्काराणाम् अभ्यासं कृतवन्तः उपमालङ्कारस्य लक्षणम् उपमा यत्र सादृश्यलक्ष्मीरुल्लसितद्वयोः इति तस्य उदाहरणानि अपि दृष्टानि उपमायाः चत्वारि अङ्गानि भवन्ति उपमेयः उपमानं साधारणधर्मः उपमावाचकम् इति यत्र सर्वाणि अङ्गानि भवन्ति सा पूर्णोपमा इति कथ्यते यत्र तु किञ्चित् अङ्गं वाच्यतया नोच्यते तत्र लुप्तोपमा इति कथ्यते कानिचन काव्येभ्यः उपमालङ्कारस्य उदाहरणानि अपि दृष्टानि अग्रिमवर्गः एप्रिल् मासस्य पञ्चमे दिनाङ्के शुक्रवासरे रात्रौ अष्टवादने तत्र वयं समासस्य अध्ययनम् अनुवर्तयामः ह्यस्तनवर्गस्य अद्यतनवर्गस्य मुद्रणम् अभ्यासः सर्वमपि आरोप्यते प्रायः सोमवासराभ्यन्तरे वयम् आरोपयामः तद्दृष्ट्वा अभ्यासं कुर्वन्तु गुरुरेव गतिर्गुरुमेव भजे गुरुणैव सहास्मि नमो गुरवे न गुरोः परमं शिशुरस्मि गुरोर्मतिरस्ति गुरौ मम पाहि गुरो धन्यवादः